एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचक उपेन्द्र दाहालः। प्रतिनिधिसभायाः ह्यस्तनोपवेशेऽपि एतद् विक्रमवर्षीयस्य विनियोजन विधेयकस्य मन्त्रालयगतानि विनियोजन शीर्षकाणि आधृत्य विमर्शनम् सम्भूतमस्ति। विमर्शने विपक्षिदलानां सांसदाः आयव्ययकं वितरणोन्मुखम् अस्ति, राष्ट्रिय गौरवस्य आयोजनाभ्य प्राथमिकता न प्रदत्ता, मार्गविस्तारस्य सम्भारस्य गुणस्तर निर्धारणस्य च कार्येभ्य प्राथमिकता न प्रदत्तेति उक्तवन्तः। विमर्शने विपक्षिदलानां सांसदाः विज्ञान प्रविदौ पर्याप्तम् आयव्ययकम् न विनियुङ्क्तम्, विपन्न नागरिकेभ्य न्यायप्राप्त्यै सहयोगाय पर्याप्तम् वित्तम् विनियुङ्क्तम् नास्ति, शिक्षा स्वास्थ्य क्षेत्रयोः करस्य ग्रहणेन साधारणजनाः प्रभाविताः भविष्यन्ति चेति उक्तवन्तः। विमर्शने विपक्षिदलानां सांसदाः अर्थमन्त्रालयेन योजनानां क्रियान्वयनाय ध्यानं न प्रदत्तम्, संचित धनस्य वर्धनाय प्रभावकारीरूपेण वित्तस्य परिचालनाय च ध्यानं दत्तं नास्तीति च आरोपयन्। तदवसरे सांसदाः पूर्वाधार विकासस्य क्षेत्रे विनियुङ्क्तं वित्तं पर्याप्तं नास्तीति उक्त्वा वित्तस्य वर्धनाय अयाचन्त। विमर्शने एकादशभिः सांसदैः विनियोजन शीर्षकाणि आधृत्य व्यय न्यूनीकरणस्य प्रस्तावः प्रस्तुतः आसीत्। प्रतिनिधिसभायाः अपरोपवेश अद्य पूर्वाह्नस्य एकादशवादने वसति। अद्यतनोपवेशे सांसदैः उत्थापितानां प्रश्नानां सम्बद्धमन्त्रिभिः उत्तरप्रदानस्य कार्यक्रमः निर्धारितो वर्तते। चिकित्सा शिक्षायोगेन छात्रवृत्त्यनुदान सम्बद्धम् एतद् विक्रमवर्षीयं कार्यविधिं स्वीकृत्य क्रियान्वेतुं निर्णीतं वर्तते। प्रधानमन्त्री मन्त्रिपरिषदः कार्यालये प्रधानमन्त्रिणः बालेन्द्रशाहस्य अध्यक्षतायां ह्य उपविष्टेन आयोगस्य उपवेशेन एवं निर्णीतं वर्तते। प्रधानमन्त्रिणः शाहस्य सञ्चारानुसन्धान विज्ञायाः दीपा दाहाल इत्यस्याः अनुसारेण शिक्षा खेलकूद मन्त्रालयस्य अर्थमन्त्रालयस्य च सहमतेः प्राप्तेः चतुर्विंशतेः घण्टानाम् अभ्यन्तरे आयोगेन कार्यविधिः पारितीकृत्य विगत समयात् क्षेत्रेऽस्मिन् विद्यमानायाः अस्पष्टतायाः समस्यायाश्च दीर्घकालिकरूपेण समाधानं विहितं वर्तते। समस्यानां समाधानाय आषाढमासस्य प्रथमे दिवसे अर्थमन्त्रालयात् शिक्षा खेलकूद मन्त्रालयाच्च समीचीन परामर्शयुता सहमतिः प्राप्तास्ति। कार्यविधिना चिकित्सा शिक्षायोगस्य पक्षतः चिकित्सा शास्त्राध्ययन शिक्षण संस्थाभ्यः सर्वेषु स्तरेषु छात्रवृत्तेः प्रदानेन अनुदान प्रदानस्य मार्ग प्रशस्तीकृतोऽस्ति। राष्ट्रिय स्वतन्त्र दलेन अधुनावधि चतुर्णां प्रदेशानां चतुष्षष्ठे जनपदानां अधिवेशनं सम्पन्नमस्तीति ज्ञापितं वर्तते। पश्चात्तन विवरणस्य अनुसारेण नवोत्तर षड्शते पालिकासु सहस्रचतुष्टये त्रिषष्ट्युत्तर शतत्रये वडा स्तरेषु च अधिवेशनम् सम्पन्नमस्ति। कोशी बागमती गण्डकी लुम्बिनी प्रदेशानाम् अधिवेशनम् सम्पन्नमस्ति चेत् मधेस प्रदेशस्य अधिवेशनम् स्थगितम् वर्तते। एवमेव कर्णाली प्रदेशस्य सुदूर पश्चिम प्रदेशस्य च अधिवेशनम् जायमानमस्तीति राष्ट्रपा दलेन ज्ञापितम् वर्तते। राष्ट्रपा दलस्य प्रथमं राष्ट्रिय महाधिवेशनम् अस्यैव आषाढ मासस्य सप्तम दिवसात् नवम दिवसं यावत् चितवन जनपदे आयोजयितुं पूर्वकार्यं द्रुतगत्या विधीयमानमस्तीति राष्ट्रपा दलेन ज्ञापितम् अस्ति। चीनदेशस्य चतुर्दिवसात्मकाय भ्रमणाय चीनदेशे विद्यमानस्य परराष्ट्रमन्त्रिणः शिशिर खनालस्य चीनदेशस्य जनराजनीतिक परामर्श सम्मेलनस्य राष्ट्रिय समितेः अध्यक्षस्य वांग हुनिङ इत्यस्य च मध्ये मेलवार्ता सम्भूतास्ति। बेइजिङ नगरे सम्भूतायां मेलवार्तायाम् अनयोर्मध्ये नेपाल चीन सम्बन्धस्य विविधेषु विषयेषु विमृष्टमस्तीति बेइजिङ वर्तिना नेपाली दूतावासेन ज्ञापितम् वर्तते। ह्यैव नेपाली दूतावासेन आयोजिते कार्यक्रमे मन्त्रिणा खनालेन चीनदेशस्य व्यवसायीभि उद्योगिभि निवेशकर्तृभिश्च सह मेलवार्ता विहितास्ति। तदवसरे नेपाले सम्भावितस्य निवेशनस्य अवसराणां विषये नेपाल निवेश समितेः प्रतिनिधिना प्रस्तुतिर्विहितासीत्। मन्त्री खनाल चतुर्दिवसात्मकं भ्रमणं प्रपूर्य अद्य नेपालं प्रत्यागच्छन् वर्तते। नेपाले वर्षायामः कतिपय दिनानाम् पश्चात् विलम्बनेन प्रारभणस्य सम्भावना दृष्टास्थिति ज्ञापितम् वर्तते। जलवायु विज्ञान विभागस्य प्रवक्ता विभूति पोखरेल नेपाले सामान्यत वर्षायाम जून मासस्य त्रयोदशे दिवसे प्रारभते परम् वर्षेस्मिन् वर्षायामस्य प्रारभणम् कतिपय दिवसानन्तरम् विलम्बनेन भविष्यतीति अज्ञापयत्। जलवायुविज्ञः पोखरेल भूपोपग्रहात् प्राप्तानाम् तथ्याङ्कानाम् जलवायोः पूर्वानुमानस्य विश्लेषणस्य च आधारेण नेपाले वर्षायामस्य प्रारभणाय विलम्बनस्य सम्भावना दृष्टास्तीति असूचयत्। स्वास्थ्य संरक्षण समित्या देशस्य विभिन्नेभ्यः द्व्यधिक शत द्वयाय सेवा प्रदायक चिकित्सालयेभ्य स्वास्थ्य सुरक्षणस्य वित्तस्य प्रदानस्य कृते अतिरिक्तानाम् एकनवतेः कोटीनाम् अष्टादश लक्षाणाम् चतुर्नवतेः सहस्राणाम् च रूप्यकाणाम् प्रदानस्य प्रक्रिया अग्रे सारिता वर्तते। मन्त्रालयस्य सहप्रवक्तु डाक्टर समीर कुमार अधिकारिणः अनुसारेण एतत्पूर्व ज्येष्ठस्य द्वितीय सप्ताहे एकाब्जम् कोटित्रयम् चतुर्विंशतिर्लक्षाणि सप्तसप्ततिः सहस्राणि च रूप्यकाणि सम्बद्ध चिकित्सालयेभ्य प्रदत्तानि आसन्। नेपाल डेनमार्क देशयोः द्विपक्षीयस्य परामर्श संयन्त्रस्य तृतीयोपवेश ह्य काष्ठमण्डपे सम्पन्नोऽस्ति। द्वाभ्यामेव पक्षाभ्याम् सप्तविंशत्युत्तर द्विसहस्रतमे ख्रीष्टवर्षे नेपाल डेनमार्क देशयोः कूटनीतिक सम्बन्ध स्थापनायाः षष्टितमस्य वार्षिकोत्सवस्य आयोजनायाः कृते सहमतिर्धृतास्तीति ज्ञापितम् वर्तते। इति समाचाराः।